आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा. प्रधानमन्त्री नरेन्द्र मोदी अद्य सायं कनाडा देशस्य कनानास्किस नगरे G7 शिखर सम्मेलने भागं गृह्णाति. श्रीमोदिनः G7 शिखर सम्मेलने अविरतं षष्ठं वारं सहभागो वर्तते. कनाडा देशस्य प्रधानमन्त्री मार्क कार्नी इत्यस्य आमन्त्रणेन श्रीमोदी स्वाधिकारिक यात्रावधौ शिखर सम्मेलनस्य पश्चात् अनेकैः राष्ट्राध्यक्षैः सह द्विपक्षीय वार्तामपि करिष्यति. प्रधानमन्त्री G7 राष्ट्राणां नेतृभिः अन्यैः आमन्त्रित देशैः च अन्ताराष्ट्रिय संस्थाभ्यः च आगतानाम् अध्यक्षैः सह वैश्विक महत्वपूर्ण विषयेषु विचार विनिमयं करिष्यति. एतेषु विषयेषु ऊर्जा सुरक्षा, प्रविधिः, नवोन्मेषः, विशिष्टतया कृत्रिम बुद्धिमत्ता ऊर्जा सम्बन्धः, क्वांटम सम्बद्ध विषयाः च प्रमुखं स्थानं भजन्ते. क्रोएशिया देशे योगस्य लोकप्रियता वर्धमाना वर्तते, अपि च तत्रत्य जनानां जीवने सम्प्रति योगः अंगभूतो वर्तते. एतस्मिन्नेव क्रमे प्रधानमन्त्री नरेन्द्र मोदी स्वदेशस्य द्विपक्षीय सम्बन्धान् सुदृढीकर्तुं श्वः क्रोएशिया देशं प्रति यास्यति. त्रयाणां राष्ट्राणां यात्रायाः तृतीयं च अन्तिमं चरणं श्वः सम्पत्स्यते, यस्मिन् श्रीमोदी श्वः अपराह्णे क्रोएशियायाः जग्रेब नगरं गमिष्यति. क्रोएशिया देशे भारतीय प्रधानमन्त्रिणः एषा प्रथमा यात्रा वर्तते. अन्ताराष्ट्रिय योग दिवसस्य समयः अपि समीपे वर्तते, अतः प्रधानमन्त्रिणः क्रोएशियायाः यात्रा सुष्ठु प्रतीयते. जग्रेब नगरं तस्य स्वागतं कर्तुं च सज्जं वर्तते. भारतस्य नैकेषु प्रदेशेषु 2000 वाहन संचालन प्रशिक्षण विद्यालयानां स्थापनां कर्तुं भारत सर्वकारेण निर्णयो विहितः. नवदिल्ल्याम् एकस्मिन् कार्यक्रमे वदन् केन्द्रीय पथ परिवहन राजमार्ग मन्त्रिणा नितिन गडकरी इत्यनेन उक्तं यत् एते प्रशिक्षण विद्यालयाः देशस्य वञ्चित जनपदेषु जनजातीय प्रदेशेषु च स्थापयिष्यन्ते, येन युवानः वृत्त्यवसराणि च प्राप्स्यन्ति. ईरान इज़राइलयोः अविवेकरूपेण परस्परं क्षेपणास्त्रं प्रहार्यते. एतेषु आक्रमणेषु उभय देशेषु शतशः जनाः मृताः, बृहद् विनाशः अपि अभवत्. गतरात्रौ आक्रमणेषु शतशः इतोपि नागरिकाः मृताः. ईरानस्य परमाणु बैलिस्टिक क्षेपणास्त्र कार्यक्रमं लक्ष्यीकृत्य इज़राइल देशस्य आक्रमणानां प्रतिक्रिया रूपेण ईरानस्य क्रियान्वयनं निरन्तरं भवति. भारतीय ऋतु विज्ञान विभागेन अद्य सौराष्ट्र कच्छ प्रदेशयोः केषुचित् स्थलेषु अतिवृष्टेः संभावना प्रकटिता. अरुणाचल प्रदेश, छत्तीसगढ़, तटीय कर्नाटक, गंगातटीय पश्चिम बंगाल, गुजरात, कोंकण गोवा, मध्य महाराष्ट्र, ओडिशा, पूर्वोत्तर राज्यानि च आगामी द्वित्रि दिनेषु अतिवृष्टिम् अनुभविष्यन्ति इति विभागेन सूचितम्. दिल्ली एनसीआर प्रदेशस्य कृते अपि एषः विभागः ज्ञापयति यत् मासस्यास्य 18 दिनांकात् आरभ्य 20 दिनांक पर्यन्तं सौम्य मध्यम वृष्ट्या सह मेघगर्जनं विद्युत्स्फोटश्च भविष्यति. इज़राइल देशेन सह संवर्धमानस्य द्वन्द्वस्य मध्ये ईरानः परमाणु अप्रसार सन्धेः निवृत्तेः योजनाम् अकरोत्. राष्ट्रपतिः मसूद पेजेस्कियनः अवदत् यत् ईरानस्य संसदः परमाणु सन्धेः निवृत्तेः विधिनिर्माणं कुर्वदस्ति. राष्ट्रपतिः तेहरानस्य वृत्तं पुनरुक्तवान् यत् तस्य परमाणु शस्त्राणां विकासस्य योजना नास्ति, तथा च ईरानस्य परमाणु क्रियाकलापाः शान्तिपूर्णतया ऊर्जायाः अनुसन्धानस्य च विषये केन्द्रीकृताः एव सन्ति इति रेखाङ्कितवान् इति वार्ताः.